पतङ्गभक्तमसरस्य माजदा हृदा पश्यन्ति मनसापि पश्चिताः समुद्रे अन्तः कवचो विचक्षते मरे एचैनाम् पदमिच्छन्ति मेधसाः पतङ्गो वाचम् मनसा बिभर्तिताङ्गन्धर्वो वदद्गर्भे अन्तः ताम् जातमानाम् स्वर्यम् मनीषा मृतस्य पदे कवचो निपान्ति अपश्यम् गोपामनिपद्यमानमा च परा च पदिभिश्चरन्तम् स सद्रे चेः स विषो चेर्वसा न आवरीवर्ति भुवनेष्वन्तः